इन्द्रम् स्तवानृतमह्यस्य मह्ना विबबाधेरोचना विज्मान्तान् आजः पप्रोचरषडे सत्वरोभिः प्रसिन्धुभ्योरिचानो महित्वा ससौर्यः परिजरो वरांस्येन्द्रोपवृत्याद्रथ्येव चक्रा अतिष्ठन्तमपस्या अन्नसर्गम् कृष्णादमांसिक्विष्या जघाना समानवस्मा अनपावृतर्चक्ष्मजा दिवो असमम् ब्रह्मणव्यम् वियः पृष्ठे भजनिमान्यर्य इन्द्रश्चिका जनसखा अजमेषे इन्द्रा अजगिरो अनिषितसर्गा अवः प्रेरजम् सकरस्य बुध्नात् यो अक्षेणेव चक्रजाशचेभिर्विश्वक्तस्तम्भ पृथिवीमुतद्याम् आपान्तमन्यस्त्रबलप्रभर्माधुनिश्यमे पाञ्छरुमाङ्ग्रजेशे सोमो विश्वान्यदसावना निनार्वागिन्द्रम् प्रतिमाना निदेभः न यस्यद्या वा पृथिवी न धन्वनान्तरिक्षम् नाद्वयः सोमो अक्षाः यदस्य मञ्जरधिनेयमानशृणाति मेणरुजति स्थिराणि जघानभ्रत्रम् स्वधिदर्वने वरुराजपुरो अरदन्न सिन्धोन् विभेदगिरिन्न पमिन्न कुम्भमागा इन्द्रो अकृणुत स्वजग्भिः त्वम् हत्यदृढजा इन्द्रधीरोऽसिर्न पर्वभृजिनाशृणासि प्रजे मित्रस्य वरुणस्य धामजुजन्न जना मिनन्ति मित्रम् प्रजे मित्रम् प्रार्यमणम् दुरेवाः प्रसङ्गिरः प्रवरुणम् विनन्ति न्या अमित्रेषु पथमिन्द्रतुम् रमृषन् मृषाणमरुषम् शिशेः इन्द्र दिव इन्द्र एष पृथिव्या इन्द्र अपामिन्द्र इत्पर्वतानाम् इन्द्र वृथामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे जागेहव्य इन्द्राः प्राक्तभ्य इन्द्रः प्रवृधो अहभ्यः प्रान्तरिक्षात् प्रसमुद्रस्य धासेः पुरपादस्य प्रथसः प्रज्मो अन्तात् प्रसिन्धुभ्यो निरिचे प्रक्षितिभ्यः प्रशोषु सत्या उषसो न केतुरसिन्वादे वर्ततामिन्द्रहेदिः अस्मे एव विद्य दिव आसजानस्तमिष्ठे न हेष साद्रोघमित्रान् अन्वहमासा अन्विद्वनान्यन्वषधेरनुपर्वतासः अन्विन्द्रम् रोदसे वावशाने अन्वापो अजिहतजाजमानम् कर्ह स्वित्साद इन्द्रचेत्यास दघस्य यद्भिनदो रक्ष एषत मित्रक्रुभो यच्छ स नेन गावः पृथिव्या आपृगभुजाशयन्ते शत्रोजन्त अभिजेनस्तदस्रेमहिव्राधन्त ओगणास इन्द्र अन्धेनामित्रास्तमसा सचन्ताम् सज्ज्योतिषा अक्तभस्ताम् अभिश्योः पुराणि हित्वा सवना जनानाम् ब्रह्माणिमन्दन् गृणतामृषेणाम् इमा माघोषन्नवसा सहो ओतिम् तिरो विश्वाम् अर्चतो याह्यर्वाङ् एवाते भजमिन्द्रभुञ्जतेनाम् विद्यामसुमतेनान्नवानाम् विद्याभवस्तोरवसा गृणन्तो विश्वामित्रा उदत इन्द्र नूनम् शुनम् हुवेम भगवानमिन्द्रमस्मिन् भरे नृतमम् वाजसादौ शृण्वन्तमुग्रमोदये समच्छघ्नन्तम् व्रत्राणि सञ्जतन्धनानाम्